श्री देवी अथर्व शीर्षम
ओम सर्वे वै देवा देवी उपतस्थु कासित्वं महादेवी साब्रवित अहम् ब्रह्म स्वरूपिणी मत्त प्रकृति पुरुषात्मकं जगत शून्यं चाशून्यं च
प्रणौमि नित्यं पापापहारिणी
अधिकार संयुक्तं वीति होत्र समन्वितं अर्धेन्दुलसितं देव्या बीजं सर्वार्थ साधकम् एवमेकाक्षरं ब्रह्म यतय शुद्ध चेतस ध्यायन्ति परमानन्दमया ज्ञाना मुराशयाः वाङ्माया ब्रह्म सुस्तस्मा षष्ठं वक्त्र समन्वितम् सूर्यो वाम श्रोत्र बिंदु संयुक्तष्टा तृतीयकाः नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः विच्चेन वार्णकोर्णस्यां महदानन्ददायकः हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभां पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकां त्रिनेत्रां रक्तवसनां भक्तकामदुहां भजे नमामि त्वां महादेवीं महाभयविनाशिनीं महादुर्गप्रशमनीं महाकारुण्यरूपिणीं यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्षा यस्या जननं नोपलभ्यते तस्मादुच्यते अजा एकैव सर्वत्र वर्तते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते नैका अत एवोच्यते अज्ञेयानन्ता लक्षा जैका नैकेति मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी यस्या परतरं नास्ति सैषा दुर्गा प्रकीर्तिता तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीं नमामि भवभीतोऽहं संसाराणवतारिणीम् इदम् अथर्वशीर्षं योधिते स पञ्चाथर्वशीर्षजपफलमाप्नोति इदम् अथर्वशीर्षमज्ञात्वा योचां स्थापयति शतलक्षं प्रजप्त्वापि सोचा सिद्धिं न विन्दति शतमष्टोत्तरं चास्य पुरश्चर्या विधिस्मृतः दशवारं पठेद्यस्तु सद्यः पापैर्प्रमुच्यते